इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना पश्चिमेशिया क्षेत्रे शान्तिं पुनःस्थापयितुं संवादस्य कूटनीतेः च आह्वानं कृतम्। सर्वोच्चन्यायालयेन निर्णयः प्रदत्तः यत् केवलं हिन्दू सिख बौद्ध मतानुयायिनः एव अनुसूचित जातिश्रेण्याः योग्याः सन्ति। असम केरलं पुदुचेरी राज्यानां विधानसभा निर्वाचनानां नामाङ्कनपत्राणां परीक्षणम् अद्य समापितम्। नामाङ्कनपत्राणां प्रस्तुतीकरणं ह्यः एव समाप्तम्। अपि च मियामी ओपन टेनिस क्रीडायां बेलारूस देशस्य क्रीडिका आर्यना सबालेंका इत्येषा फ्लोरिडा नगरे प्रागुपान्त्यचक्रीय द्वन्द्वे प्रविष्टवती। अथ वार्ताः विस्तरेण। प्रधानमन्त्रिणा नरेन्द्रमोदिना पश्चिम एशिया क्षेत्रे शान्तिं पुनःस्थापयितुं संवादस्य कूटनीतेः च आह्वानं कृतम्। पश्चिमेशियायां वर्तमानस्य संघर्षस्य विषये राज्यसभायां भाषमाणः अस्मिन् विषये भारतस्य स्थितिं स्थापयन् श्रीमोदी अवदत् यत् भारतं समाह्वानं न्यूनं कर्तुं होर्मुज जलसन्धेः पुनः उद्घाटनस्य च विषयम् उत्थापयदिति।
युद्ध की शुरुआत के बाद से मैंने पश्चिम एशिया के ज्यादातर देशों के राष्ट्राध्यक्षों के साथ दो राउंड फोन पर बात की है। हम गल्फ के सभी देशों के साथ लगातार संपर्क में हैं। हम ईरान इजराइल और अमेरिका के साथ भी संपर्क में हैं। हमारा लक्ष्य डायलॉग और डिप्लोमेसी के माध्यम से क्षेत्र में शांति की बहाली का है। हमने डी एस्केलेशन और हॉर्मुज स्ट्रेट खोले जाने पर भी उनसे बात की है। कमर्शियल जहाजों पर हमला और हॉर्मुज स्ट्रेट जैसे अंतर्राष्ट्रीय जलमार्ग में रुकावट अस्वीकार्य है।
प्रधानमन्त्री श्रीमोदी अवदत् यत् अस्मिन् युद्धकाले अपि भारतीयनौकायानानां सुरक्षितसञ्चारणं सुनिश्चेतुं कूटनीतिमाध्यमेन भारतं निरन्तरं प्रयतमानः अस्ति। श्रीमोदी अवदत् यत् पश्चिम एशियादेशे वर्तमानं युद्धम् इदानीं चतुर्थे सप्ताहे प्रचलति, येन सम्पूर्णे विश्वे गभीरः ऊर्जासङ्कटः उत्पन्नः अस्ति। सः अवदत् यत् भारतस्य कृते अपि एषा स्थितिः चिन्तायाः विषयः अस्ति। अनेन द्वन्द्वेन व्यापारमार्गाः प्रभाविताः सन्ति। सः अवदत् यत् अनेन पेट्रोल डीजल गैस उर्वरकेत्यादीनाम् आवश्यकवस्तूनां नियमितापूर्तिः बाधिता अस्ति। प्रधानमन्त्री अवदत् यत् गतदिनेषु विश्वस्य विभिन्नेभ्यः देशेभ्यः अशोधिततैलम् एलपीजी इत्येतैः च पूरितानि नौकायानानि भारतं प्रति आगतानि सन्ति। सः अवदत् यत् भारतम् उर्वरकानि तैलं गैस इत्यादीनि आवश्यकवस्तूनि वहन्तः सर्वाः नौकाः सुरक्षितरूपेण प्राप्तुं प्रतिबद्धः अस्ति। प्रधानमन्त्री अवदत् यत् प्रायः एककोटि भारतीयाः गल्फदेशेषु निवसन्ति, कार्यं च कुर्वन्ति। सः अवदत् यत् तेषां जीवनस्य जीविकायाः च सुरक्षां सुनिश्चेतुम् अपि भारतस्य कृते प्रमुखा चिन्ता अस्ति। सः अवदत् यत् द्वन्द्वस्य आरम्भादारभ्य अद्यावधि 75,000+ भारतीयाः सुरक्षितरूपेण भारतं प्रत्यागताः। ईरानदेशात् प्रायः 1,000+ भारतीयाः च। प्रधानमन्त्री अवदत् यत् प्रशासनं प्रत्येकस्मिन् क्षेत्रे अन्येषु देशेषु निर्भरता न्यूनीकर्तुं निरन्तरं प्रयतमानः अस्ति। सः अवदत् यत् आत्मनिर्भरमेव एकमात्रं व्यवहार्यमार्गः अस्ति। श्रीमोदी अवदत् यत् भारतम् अस्य सङ्कटकालस्य न्यूनतमं प्रतिकूलप्रभावं सम्मुखीकर्तुं निरन्तरं प्रयतमानोऽस्ति। सः अवदत् यत् भारतस्य अर्थव्यवस्थायाः आधारः प्रबलाः सन्ति, तथा च प्रशासनं द्रुतगत्या प्रवर्त्यमानां स्थितिं निकटतया निरीक्षमाणोऽस्ति। सर्वोच्चन्यायालयेन निर्णयः प्रदत्तः यत् केवलं हिन्दू सिख बौद्ध मतानुयायिनः एव अनुसूचित जातिश्रेण्याः योग्याः सन्ति। न्यायालयेन स्पष्टीकृतं यत् अन्यं मतं प्रति यथा क्रिश्चन मतं प्रति धर्मान्तरणस्य अनन्तरम् अनुसूचितजातिस्थितिः तत्क्षणमेव पूर्णतया च नष्टा भवति। आन्ध्रप्रदेशस्य उच्चन्यायालयस्य आदेशस्य समर्थनं कुर्वन् सर्वोच्चन्यायालयेन निर्णयः प्रदत्तः यत् एकदा कश्चन जनः ईसाई मतं स्वीकृत्य सक्रियतया तस्य मतस्य प्रचारम् आचरणं च करोति, चेत् तदा सः अनुसूचित जात्याः सदस्यत्वेन न गण्यते। न्यायाधीशः पीके मिश्रः मनमोहनः च इतोपि निर्णयम् अकुर्वताम्। यत् यः दलितजनः ईसाई मतं स्वीकरोति सः अनुसूचित जाति अनुसूचित जनजाति अत्याचार निवारणम् अधिनियमस्यान्तर्गतं रक्षणं याचयितुं शक्नोति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज़ ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि उपलब्धो भविष्यति। असम केरलम पुदुचेरी राज्यानां विधानसभा निर्वाचनानां नामांकनपत्राणां परीक्षणम् अद्य समापितम्। नामांकनपत्राणां प्रस्तुतीकरणं ह्यः समाप्तम्। नामांकन निराकरणस्य अन्तिमः दिवसः गुरुवासरः अस्ति। अग्रिमे मासे नवमे दिनांके द्वयोः राज्ययोः यथा केन्द्रशासित प्रदेशे च एकचरणे मतदानं भविष्यति। मतानां गणना मई मासस्य चतुर्थे दिनांके भविष्यति। केन्द्रीय कृषि मंत्री शिवराज सिंह चौहानः अवदत् यत् केन्द्र सर्वकारस्य निरन्तर प्रयासानां कारणात् देशे कृषकाणाम् आयः वर्धितः अस्ति। अद्य लोकसभायां प्रश्नोत्तरकाले अनुपूरक प्रश्नस्य उत्तरं प्रदत्ता श्री चौहानः अवदत् यत् कृषकाणाम् आयः न केवलं द्विगुणम् अपि तु अनेकेषु प्रकरणेषु त्रिगुणम् अष्टगुणं यावच्च वर्धितम्। चतुर्दशाधिकद्विसहस्रतमवर्षादारभ्य देशे खाद्यान्नस्य उत्पादनं 44% यावत् वर्धितम् इति सः अवदत्।
कई किसानों की आय दुगनी हुई है और केवल दुगनी नहीं माननीय अध्यक्ष महोदय, कई किसानों की तिगनी भी हुई है, कई की चौगनी भी हुई है। मैं आज बताना चाहता हूँ, हमने बजट बढ़ा के 19,306 करोड़ से 1,30,000 करोड़ से ज्यादा हमने उत्पादन बढ़ाने का काम किया है। 14 के बाद 44% उत्पादन अलग अलग खाद्यान्न का बढ़ाया।
मंत्री अवदत् यत् प्रधानमंत्री किसान सम्मान निधि योजनायाः अन्तर्गतं कृषकाणां कृते प्रतिवर्षं 6,000 रूप्यकाणाम् आर्थिक साहाय्यं प्रत्यक्षतया तेषां बैंक लेखासु प्रदत्ता भवति। रक्षामन्त्रिणा राजनाथ सिंहेन अद्य वैश्विक क्षेत्रीय सुरक्षा विकासानां दृष्ट्या उच्चस्तरीय समीक्षा सभायाः अध्यक्षता कृता। एषा समीक्षा सभा तदा अभवत् यदा वर्तमानः पश्चिम एशिया संघर्षः चतुर्थे सप्ताहे प्रविष्टम्, येन वैश्विक व्यापार मार्गाः विशेषतः होर्मुज जलसन्धि द्वारा महत्वपूर्ण रूपेण बाधिताः भवन्ति। सभायां रक्षाक्षेत्रस्य नैके अधिकारिणः उपस्थिताः आसन्। केन्द्रीय रेलमन्त्री अश्विनी वैष्णवः अद्य भारतीय रेल विभागस्य अस्य वर्षस्य नवदिल्ल्यां 50 सप्ताहेषु 50 परिष्काराणां घोषणाम् अकरोत्। नवदिल्ल्यां प्रसारमाध्यमैः सह वार्तालापं कुर्वन् मन्त्री उक्तवान् यत् यात्रा चीटिका निरस्तीकरणे प्रति देय नियमानां रेलयान आरोहणस्य नियमेषु परिवर्तनादीनां परिष्काराणां घोषणाम् अकरोत्।
12% काउंटर से निकलते हैं टिकट, उसमें अब किसी भी काउंटर से अक्रॉस द कंट्री एनी स्टेशन एनी काउंटर पीपल कैन गो एंड कैंसिल द टिकट।
निर्वाचन आयोगेन अद्य निर्वाचन सज्जतायाः मूल्यांकनं कर्तुं समन्वयं स्थापयितुं हिंसा मुक्तं प्रलोभन मुक्तं च निर्वाचनं सुनिश्चेतुं मतदानस्य कृते निर्दिष्टानां पंच राज्यानां तथा तेषां द्वादश सीमायुतानां राज्यानां केन्द्रशासित प्रदेशानां च वरिष्ठाधिकारिभिः सह समीक्षा सभा आयोजिता। मुख्य निर्वाचन आयुक्तः ज्ञानेश कुमारः निर्वाचन आयुक्ताभ्यां डॉ एस एस संधु डॉ विवेक जोशी इत्येताभ्यां सह असम केरलम पुदुच्चेरी तमिलनाडु पश्चिम बंगाल राज्येषु निर्वाचनस्य सज्जतां विधि व्यवस्थायाः स्थितिं च समीक्षितवन्तः। भारत ऋतु विभागेन आगामी दिनद्वयोः केरलम माहे प्रदेशयोः उष्ण आर्द्र ऋतोः पूर्वानुमानं प्रकटितम्। श्वः यावत् आन्ध्रप्रदेशे मराठवाडायाम् अन्ता कर्णाटके तटीय कर्णाटके मध्यप्रदेशे उपहिमालयी पश्चिमबंगे सिक्किम प्रदेशे पूर्वोत्तर राज्येषु च मेघगर्जनस्य विद्युत् स्खलनस्य च पूर्वानुमानमपि विभागेन कृतम्। मियामी ओपन टेनिस क्रीडायां बेलारूस देशस्य क्रीडिका आर्याना सबालेंका इत्येषा फ्लोरिडा नगरे प्रागुपान्त्य चक्रीय द्वन्द्वे प्रविष्टवती। इति वार्ताः।